पुनः एकवारं सर्वेषां स्वागतम्. अद्यदिने पश्यन्तु सर्वे, इन् अवर् क्लास् अवर् क्लास् इस् स्पोकन् संस्कृत ग्रुप् 12 सेशन् नम्बर् 3. ओके, अवश्ये सेशन् नम्बर् 3. अस्मासु गणेषु एकनिमिषं, हा प्रवीणा अपि, प्रवीणा भगिनी स्वागतं. प्रवीणा भगिनी
नमस्ते. भगिनी
नमस्ते. नमस्ते. अत्र के जनाः सन्ति पश्यन्तु सर्वे, हू आर् देर् इन् अवर् क्लास्. अनु अत्र अनु भगिनी अस्ति, अगस्टो महोदयः अस्ति, क्लेर् भगिनी अस्ति, दीप्ति भगिनी अस्ति, अनन्तरं पी अम्बिका पी अम्बिकापति महोदय अस्ति, राजन् महोदय अस्ति, प्रवीणा भगिनी अस्ति, रमणी भगिनी अस्ति. सो दीस् आर् आल् स्टूडेण्ट्स् आफ् अवर् क्लास्. सो हौ ऐ एम् सेयिङ्ग्, दीप्ति भगिनी अस्ति, ओके, प्रवीणा भगिनी अस्ति. नौ के जनाः सन्ति, के जनाः सन्ति, वीणा, वीणा भगिनी, श्रीवत्सः महोदयः, अनन्तरं शिवमहोदय, सेल्वी भगिनी, राधा भगिनी, रमणी भगिनी सन्ति. कः अस्ति? राजन् महोदय अस्ति, राधा भगिनी अस्ति, दीप्ति भगिनी अस्ति, श्यामला भगिनी अस्ति. परन्तु वाट् इस् द डिफ्रेन्स्? वीणा महोदया, श्यामला महोदया, श्रीवत्स महोदयः, शिवमहोदयः, रमणी भगिनी सन्ति. वाट् इस् द डिफ्रेन्स्? टेल् मी. I use two verbs, asti and san. So what is the difference? Can you identify?
Ekavachanam, bahuvachanam.
Number of people and...
Yes, ekavachanam, bahuvachanam, singular and plural. Okay. Now, just, balakah asti. Okay, balakah asti. Idhanim, bahuvachane vaktum ichhami chet, katham bhavati. मेक् प्लूरल् आफ् दिस् बालकः अस्ति. यस्,
बालकाः सन्ति.
वण्डर्फुल्. बालकः अस्ति, बालकाः सन्ति, बालिका अस्ति. मेक् प्लूरल्.
बालिकाः
सन्ति,
बालिकाः सन्ति, बालकः अस्ति, बालकाः सन्ति, वृक्षः अस्ति, वृक्षाः सन्ति, बालिका अस्ति, बालिकाः सन्ति, महिला अस्ति, महिलाः सन्ति. ओके, सो अस्माकं वर्गे कः अस्ति? राधा भगिनी अस्ति, सेल्वी भगिनी अस्ति, शैलेन्द्रमहोदय अस्ति, शिवमहोदय अस्ति. अस्माकं वर्गे के सन्ति? के सन्ति? त्रिविक्रम महोदय, श्रीवत्स महोदय, शिवमहोदय, वीणा भगिनी, राधा भगिनी, प्रवीणा भगिनी, राजन् महोदय सन्ति. ओके, नाउ जस्ट वन मोर एडिशनल थिंग. अत्र ट्राई टू अंडरस्टैंड, लेटर ऑन आई विल translate everything, don't worry about it, just listen carefully. Atra Radha Bhagini Asti, Atra Praveena Bhagini Asti, Atra Dipti Bhagini Asti, Atra Augusto Mahodaya Asti, Atra अत्र अस्ति. को ती भगिनी कुत्र अस्ति वदतु
अत्र अस्ति
अत्र अस्ति ओके अम्बिकापति महोदय अत्र अस्ति अम्बिकापति महोदय कुत्र अस्ति अम्बिकापति महोदय अत्र अस्ति राजन महोदय अत्र अस्ति राजन महोदयः कुत्र अस्ति राजन महोदयः अत्र अस्ति ओके मायरा बालिका अत्र अस्ति वा अस्ति वा मायरा बालिका अत्र
नास्ति
नास्ति अस्ति अत्र अस्ति अत्र अस्ति 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 कुत्र अस्ति अत्र अस्ति कुत्र अस्ति अत्र अस्ति नौ जस्ट् ट्रै टु अण्डर्स्टाण्ड् इफ् ऐ एम् सेयिङ्ग् मायरा बालिका अत्र अस्ति दीप्ति भगिनी अत्र अस्ति श्रीवत्स महोदयः अत्र अस्ति ओके सो देर् इस् नो चेञ्ज् इन् अस्ति रैट् सः अस्ति एषः अस्ति सा अस्ति एषा अस्ति तत् अस्ति एतत् अस्ति वाट् एवर् एव्री टैम् दट् अस्ति रिमेन्स् द सेम् ओके तथैव बालकाः सन्ति बालिकाः सन्ति वृक्षाः सन्ति पुष्पाणि सन्ति पत्राणि सन्ति नो चेञ्ज् इन् सन्ति इर्रेस्पेक्टिव् आफ् द जेण्डर् नौ जस्ट् इमेजिन् न अवर्स् इस् सेशन् त्री क्लास् त्री स्पोकन् संस्कृत ग्रूप् 12 सेशन् त्री जस्ट् इमेजिन् इन् सेशन् टु वी हाव् संसे माधवमहोदय तत्र नारायणमहोदय लतिका भगिनी मालिनी भगिनी एण्ड् सो आन् दे आर् देर् इन् देट् सेशन् पर्टिक्युलर्ली सेशन् टु सो इफ् ऐ एम् आस्किङ्ग् यु अत्र एतस्मिन् वर्गे माधव अत्र अस्ति वा माधवमहोदयः अत्र अस्ति वा नास्ति अत्र माधवमहोदयः नास्ति देन् द नेक्स्ट् क्वेश्चन् यु आर् सेयिङ्ग् नो सो ऐ एम् आस्किङ्ग् माधवमहोदय कुत्र अस्ति
तत्र
तत्र अस्ति हि इस् इन् सेशन् टु ओके माधवमहोदयः तत्र अस्ति माधवमहोदयः अत्र नास्ति एवं वा अत्र नास्ति वा माधवमहोदय कुत्र अस्ति माधवमहोदयः तत्र अस्ति हरिमहोदयः तत्र अस्ति नारायणमहोदय तत्र अस्ति लतिका भगिनी तत्र अस्ति मालिनी भगिनी तत्र अस्ति अत्र न सन्ति ओके माधवः हरिः नारायण लतिका भगिनी वा मालिनी भगिनी एण्ड् सो आन् गीता भगिनी अत्र न सन्ति तत्र अस्ति तत्र सन्ति ओके कुत्र सन्ति तत्र सन्ति अत्र नास्ति अत्र नास्ति तत्र अस्ति कुत्र अस्ति तत्र अस्ति बट् इफ् ऐ एम् आस्किङ्ग् क्लेयर् भगिनी कुत्र अस्ति वट् इस् द आन्सर् अत्र अस्ति ओके क्लेयर् भगिनी अत्र अस्ति रैट् सो दिस् इस् अत्र तत्र कुत्र विच् थ्री वर्ड्स् अत्र कुत्र
कुत्र
तत्र रैट् सो अत्र मीन्स् वाट् हियर् तत्र मीन्स् वाट्
देयर्
तत्र मीन्स्
देयर्
देयर्
and kutra means
where.
Okay, for asking questions, where are they, where is he, where is she, here or there. Okay, so that is the one part. Now let me show you the slide. One minute. Okay, what do you see here in the picture? Ekekam vadatu. Shailendra Mahodaya vadatu. Kim asti atra?
Lekani asti. Lekani.
Ekani visham. Vadatu atra lekani asti.
Atra lekani okay. asti.
किमस्ति
गणकयन्त्र अस्ति
सङ्गणक सङ्गणकम् इति
सङ्गणकं
महोदय गणकयन्त्रम् इत्युक्ते तत् केल्क्युलेटर् भवति केल्क्युलेटर् अस्ति न तत्र अत्र सङ्गणकम् अत्र सङ्गणकम् अस्ति इतोपि वदतु अत्र
स्यूतः
स्यूतः अस्ति
स्यूतः
स्यूतः अस्ति एण्ड् वाट् इस्
अङ्कने अस्ति
अङ्कने अस्ति ओके
अत्र अत्र अङ्कने अस्ति
अत्र अङ्कने अस्ति सम्यक् गुड् त्रिविक्रम महोदय एकवारं पुनः एकवारं वदति वा किं किम् अस्ति अत्र
अत्र लेखनी अस्ति तत्र सङ्गणकम् अस्ति
अत्र वि केन् सी एव्रिथिङ्ग् इन् द पिक्चर् रैट् सो अत्र
अत्र सङ्गणकम् अस्ति अत्र स्यूतः अत्र स्यूतः अस्ति अत्र
रैट् ओके सो अत्र स्यूतः अस्ति अत्र सङ्गणकम् अस्ति अत्र लेखनी अस्ति अत्र अङ्कनी अस्ति रैट् सो वाट् डु वि सी इन् द पिक्चर् स्यूतः सङ्गणकं लेखनी अङ्कनि एकत्र दे आर् आल् टुगेदर् इन् वन् पिक्चर् रैट् स्यूतः अत्र अस्ति सङ्गणकम् अत्र अस्ति लेखनी अत्र अस्ति अङ्कनि अत्र अस्ति नौ अत्र मापिका अस्ति वा मापिका इत्युक्ते स्केल् मापिका अस्ति वा
मापिका अत्र नास्ति
अत्र नास्ति सो देट् मापिका देट् मेजरिङ्ग् स्केल् इट् इस् लैङ्ग् आन् मै टेबल् देर् सो वाट् केन् ऐ से मापिका तत्र अस्ति मापिका अत्र नास्ति मापिका तत्र अस्ति पुस्तकं कुत्र अस्ति
अत्र अस्ति
अत्र नास्ति
अत्र नास्ति पुस्तकम्
अत्र नास्ति
या एव्रिबडी इस् हेविङ्ग् बुक् रैट् सो पुस्तकं तत्र अस्ति अत्र नास्ति ओके स्यूतः अत्र अस्ति सङ्गणकम् अत्र अस्ति लेखनी अत्र अस्ति अङ्कनी अत्र अस्ति पुस्तकं तत्र अस्ति मापिका तत्र अस्ति. ओके, सो अत्र तत्र सन्ति अस्ति, पुस्तकः अत्र नास्ति, मापिका अत्र नास्ति, पुस्तकः तत्र अस्ति, मापिका अत्र अस्ति, अत्र नास्ति, अत्र न अस्ति, अत्र पुस्तकं न अस्ति. सी यु केन् न अस्ति वा नास्ति, नास्ति इस् द वर्ड. सो जस्ट् टु अण्डर्स्टाण्ड्, न अस्ति इस् नास्ति, पुस्तकम् अत्र नास्ति, मापिका अत्र नास्ति. ओके, सो वन् मोर् वर्ड्, अत्र तत्र कुत्र एकत्र, एकस्मिन् एव स्थले स्यूतः, सङ्गणकं, लेखनी, अङ्कनी. नाम किं दृश्यते अत्र?
आकाश.
आकाश इतोपि
भूमि.
भूमि करेक्ट, भूमि, लैंड. ओके, लैंड, स्काय, एंड व्हाट इज
मार्गः?
हम्म,
मार्गः अस्ति. मेघ.
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 मेघ अस्ति, मेघाः सन्ति. नाउ समबडी सेड मार्गः, यस, देयर इज अ रोड देयर, दैट इज आल्सो करेक्ट. तत् अस्ति, बहु सम्यक्. ओके, भूमि अस्ति. नो, वेर् आर् वी सिटिङ्ग्? देर् आल्सो भूमि अस्ति. वट् डु वी से? आकाशः. आकाशः अत्र अस्ति. आकाश, वेन् इफ् यु लुक् औट् आफ् विण्डो यु केन् सी आकाश इस् देर्. सो आकाश, स्का इस् वेरि मच् देर्. सो आकाशः अत्र अस्ति, आकाशः तत्र अस्ति, आकाशः अत्र अस्ति, आकाशः तत्र अस्ति, भूमि अत्र अस्ति, भूमि तत्र अस्ति, आकाशः सर्वत्र अस्ति, आकाशः सर्वत्र अस्ति, भूमि सर्वत्र अस्ति. सो वाट् इस् द मीनिङ्ग् आफ् वर्ड् सर्वत्र? सो हियर्, एव्रिवेर्. भूमि सर्वत्र अस्ति, आकाशः सर्वत्र अस्ति. इतोपि what do you see here in the picture?
Parvata.
Parvata asti. And
yuvakah asti.
Okay. Vana. And
vrikshah.
Person is inhaling air, the air. So what is that? Vayuhu. Vayuhu. Vayuhu kutra kutra asti?
सर्वत्र अस्ति,
सर्वत्र अस्ति.
भूमि सर्वत्र अस्ति, वायुः सर्वत्र अस्ति, आकाशः सर्वत्र अस्ति. ओके, अत्र अस्ति, तत्र अस्ति, सर्वत्र अस्ति. भूमिः सर्वत्र अस्ति, आकाशः सर्वत्र अस्ति, वायुः सर्वत्र अस्ति. And now, so now, in our session, as I told you, in our session, session number 3, we have these many papers. Okay, the list is in front of us. Now, in session 2, we have some other people. And for example, we have Narayan, Hari, or Latika, Malini, and so on. Now, I'm taking some different names. I'm asking. We don't know whether that person is in session 1 or session 2 or session 3, or we don't know whether he has enrolled himself for the course or not. In that case, what would be the answer? Suppose Raghava Namna Eka Manushya. We don't know whether that person has enrolled in our course or not. Don't know. So if I'm asking, Raghava Kutra Asti? Raghava Atra Tu Nasti? Raghava Tatra Api Nasti? Because we don't find his name in any other session. In that case, the answer will be, Raghava Anyatra Asti. Raghava Atra, Raghava Mahodayaha Atra Nasti. Raghava Mahodayaha Tatra Nasti. Raghava Mahodayaha Anyatra Asti. Anyatra ityukte kim?
Elsewhere.
Okay. Raghava Mahodaya, he's not here. He's not there. We don't know. He might be elsewhere. Okay. Here, there, where, everywhere, elsewhere. Right? Raghava Mahodaya Atra Nasti. Raghava Mahodaya Tatra Nasti. Raghava Mahodaya Sarvatra Tu Nasti Eva. So Raghava Mahodaya Anyatra Asti. Right? So these are the words which we are going to practice today. Now, one more picture I'm showing you.
Okay.
Noise. Just see. Noise. Yeah. Please. Just take care that. Take care of your audio or mute yourself if there is any disturbance. Screen drushyateva.
Yes.
Yeah. Sure.
Okay. Now, ekam vadatu. Kaha asti, ka asti, kim asti. Let us start with Avastu Mahodayah, Vadati Va, Kim Drushyate Atra, Atra Kaha Asti, Ka Asti, Kim Asti, Vadati Va, Asti Va Avastu Mahodayah Atra.
Sorry, Mahodaya, I didn't understand, sorry.
Okay. Now, just observe the picture. Do you see the picture, Mahodaya?
Yes.
Okay. What do you see in the picture?
A teacher and
children. Krupaya vadatu, atra shikshika asti. Vadatu krupaya.
Shikshika.
Atra,
I don't remember.
Atra.
Atra.
Shikshika.
Shikshika. Teacher.
Okay. Asti. Correct. Shikshika. Adhyapika. That is all teacher.
Okay.
Asti. Okay. Asti. Okay. And who else is there?
Chatraha.
अवसरबोधय प्रयत्नं करोतु अनन्तरं सर्वेषाम् अवसरम् अस्ति वदतु छात्राः यु फैण्ड् स्टुडेण्ट्स् आल्सो देयर् रैट् सो कृपया वदतु अत्र छात्राः सन्ति
अत्र तत्र सन्ति
छात्राः
छात्राः
सन्ति
अत्र छात्राः सन्ति
वण्डर्फुल् Now, I'm asking you the question. Huh? Please pay attention. Atra, atra, mahila asti va?
Mahila. Mahila.
Hmm. Do you find any other lady standing with the teacher?
No, no.
No. So, how to say? Atra mahila nasti.
Okay.
Mahila nasti. Okay. We can see all students and then one teacher. That's all. We don't find any other lady standing there or anybody else. So, mahila nasti. Atra mahila nasti. Okay, Augusta Modaya?
Okay.
Okay. Dhanyabadaha. Dhanyabadaha.
Dhanyabadaha.
Now, Selvi Bhagini will tell me. Selvi Bhagini?
Aham, Mata. Aham,
Atra.
Krishna Palakam Asti.
Wonderful. Blackboard. Iti. Krishna Palakam. Blackboard Asti. Atra Krishna Falakam Asti. And what is?
Atra Pustakani Santi.
Ah, Atra Pustakani Santi. Now, Atra Prayogashala Asti va? Prayogashala. Ityukte? Elaborated. Do you find any lab here? It's a classroom, isn't it? So, it's a school and there is a classroom. So, Prayogashala Asti va?
Prayogashala Asti.
Asti. Prayogashala Kutra Asti? Asti. Okay, so this is a school. Laboratory has to be there. So, what do we say? Prayogashala, lab. Prayogashala, tatra asti. Okay. Prayogashala, atra nasti. Prayogashala, kutra asti. Prayogashala, tatra asti. Okay. Dhanyavad, Shilvi Mahodaya. Dhanyavad. Shiva, Shiva Mahodaya, vadati va. Shiva Mahodaya. Bhavan asti va. Shiva Mahodayaha Nasti? Astu. Siddharth Mahodaya. Siddharth Mahodaya. Mamadvani na Shruyate va?
Shruyate Bhagini.
Shruyate.
Siddharth Mahodaya Asti va? Okay, Astu. Veena Bhagini? Veena Bhagini?
Yeah, Asmi. Asmi Adhyapika.
Bhagini, Atra, Atra, Mukhya Adhyapika Asti va? Mukhya Adhyapika Asti
va? Atra, yeah, Atra Mukhya Adhyapika Nasti.
Nasti. Mukhyadhyapika kutra asti?
Atra nasti.
Atra nasti, anyatra asti.
Anyatra
okay.
Asti, yeah.
Okay. She may be there in the school or she may be taking round anywhere or she might have gone for the meeting. We don't know. Okay. So, Mukhyadhyapika anyatra asti. Okay. Vadatu, Mukhyadhyapika atra nasti. Mukhyadhyapika anyatra asti. Just repeat these two sentences, Bhagini.
Mukhya adhyapika atra na asti. Mukhya adhyapika anyatra asti.
Bahu samyak, bahu samyak. Okay. Atra itopi kim drushyate. What else do you find here?
Atra.
Asti, asti.
Vadatu?
अत्र कति अस्ति
अत्र घटी अस्ति अत्र घटी अस्ति अत्र जलम् अस्ति वा
अत्र जलं नास्ति
जलं कुत्र अस्ति
जलं तत्र अस्ति
अन्यत्र अस्ति अन्यत्र अस्ति वा तत्र अस्ति अन्यत्र अस्ति ओके अत्र कारयानम् अस्ति दृश्यते वा कारयानम् अस्ति किमस्ति
कारयानम्
अत्र अस्ति ओके अत्र रेलयानम् अस्ति वा
नास्ति
रेलयानम् अस्ति वा रेलयानं रेलयानम् इस् ट्रेन् अत्र रेलयानं नास्ति रेलयानम् अन्यत्र अस्ति ओके रेलयानम् अन्यत्र अस्ति इदानीं क्लेर् भगिनी क्लेर् भगिनी भवती वदतु अत्र पुष्पम् अस्ति वा
अत्र पुष्पं नास्ति
अत्र
पुष्पम् अन्यत्र अस्ति
पुष्पम् अन्यत्र अस्ति नौ अत्र पुष्पाणि सन्ति वा
अत्र पुष्पाणि न सन्ति
न सन्ति वण्डर्फुल् पुष्पाणि अन्यत्र सन्ति वदतु
पुष्पाणि अन्यत्र सन्ति
बहु सम्यक् बहु सम्यक् श्यामला भगिनी
नमस्कारः भगिनि
नमस्कार श्यामला भगिनी अत्र वायुः अस्ति वा
अत्र वायुः नास्ति
वायुः नास्ति चिन्तयतु पुनः एकवारं कृपया
तत्र वायुः नास्ति
वायुः आकाशः वायुः भूमि सर्वत्र अस्ति
वायुः
अस्ति
वायुः नास्ति अन्यत्र अस्ति
वायुः भगिनी वायुः भूमि आकाशः कथमस्ति
सर्वत्र अस्ति सर्वत्र अस्ति
सो वट् इस् द आन्सर् अत्र वायुः अस्ति वायुः सर्वत्र अस्ति ओके वदतु पुनः एकवारं
तत्र वायुः अस्ति वायुः सर्वत्र अस्ति
वण्डर्फुल् अत्र भूमिः अस्ति वा
नास्ति
भूमिः नास्ति
भूमिः अस्ति भूमिः सर्वत्र अस्ति
वण्डर्फुल् सर्वत्र अस्ति भूमिः वायुः आकाशः सर्वत्र अस्ति भगिनि बहु सम्यक् बहु सम्यक् धन्यवादः
धन्यवादः
आर् यु हियर् अत्र अस्ति वा तत्र अस्ति वा अन्यत्र अस्ति वा मायरा बेटा कुत्र अस्ति नास्ति अन्यत्र अस्ति क्रीडाङ्गणे अस्ति वा ओके ठीक् है इदानीं राधा भगिनी राधा भगिनी इदानीं वदतु किं किं दृश्यते अत्र
अत्र पाठशाला अस्ति पाठशाला दृश्यामि अहं पाठशाला दृश्यामि क्लास् रूम्
वर्गं पश्यामि
वर्गं पश्यामि
सम्यक् बहु सम्यक् वदतु वर्गं पश्यामि दिस् इस् द क्लास् रूम् रैट् सो वर्गं पश्यामि एण्ड् कण्टिन्यू
अहं दृश्य अध्यापक
अध्यापिका अस्ति
अध्यापिका अस्ति
अध्यापिका अस्ति
स्टूडेण्ट्स् शिष्य शिष्य
छात्राः
ऐ एम् सोरि
वदतु इट्स् ओके नो इश्यूस् अत्र
अत्र
छात्राः
छात्राः दृश्यामि
सन्ति
सन्ति ओके पुस्तक अत्र पुस्तकः सन्ति
पुस्तकानि सन्ति
पुस्तकानि सन्ति
पुस्तकम् एकनिमिषं पुस्तकं पुस्तकानि पुस्तकम् अस्ति पुस्तकानि सन्ति पुष्पम् अस्ति पुष्पाणि सन्ति पत्रम् अस्ति पत्राणि सन्ति ओके पुस्तकानि सन्ति वदतु इतोपि
अत्र घटी अस्ति
अत्र घटी अस्ति
अत्र बाल् डाल्
बाल् इत्युक्ते किम् अन्य कोऽपि साहाय्यं करोतु ओके वण्डर्फुल् धन्यवादः
धन्यवादः
डाक्टर् अम्बिकापति महोदय भवतः प्रश्नः ओके अत्र क्रीडाङ्गणमस्ति वा
नास्ति
नास्ति क्रीडाङ्गणं कुत्र अस्ति
अन्यत्र अस्ति
क्रीडाङ्गणम् अन्यत्र अस्ति और् तत्र अस्ति बिकास् देर् इस् अ स्कूल् न सो तत्र अन्यत्र बोथ् आन्सर्स् आर् करेक्ट् ओके अत्र अत्र शिक्षिकाः सन्ति वा अत्र हियर् इन् द पिक्चर् शिक्षिकाः सन्ति वा
अत्र शिक्षिकाः न सन्ति
न सन्ति शिक्षिकाः कुत्र सन्ति
शिक्षिकाः तत्र सन्ति
ओके दे मैट् बि सिटिङ्ग् इन् अ टीचर्स् रूम् शिक्षिकाः तत्र सन्ति शिक्षकाः तत्र सन्ति ओके सो दिस् इस् इन् जनरल् अबौट् अत्र तत्र कुत्र अन्यत्र सर्वत्र इदानीम् अहम् आह्वयामि कः इदानीं पर्यन्तं न उक्तवान् त्रिविक्रम महोदय या त्रिविक्रम महोदय पठतु किं दृश्यते अत्र
ईश्वरः अत्र ईश्वरः तत्र ईश्वरः सर्वत्र ईश्वरः अन्यत्र तत् स्थानं कुत्र अस्ति यत्र ईश्वरः नास्ति
ईश्वरः अत्र अस्ति ईश्वरः तत्र अपि अस्ति ईश्वरः सर्वत्र अस्ति ईश्वरः अन्यत्र अपि अस्ति तत् स्थानं कुत्र अस्ति यत्र ईश्वरः नास्ति वदतु वाट् इस् द आन्सर्
ईश्वरः अस्ति
ईश्वरः तु सर्वत्र अस्ति ओके बराबर नौ जस्ट् टेल् मी सर्वत्र कः अस्ति सर्वत्र एव्रिवेर् सो वाट् वी स्टडी भूमिः सर्वत्र अस्ति वायुः सर्वत्र अस्ति आकाशः सर्वत्र अस्ति ईश्वरः सर्वत्र अस्ति रैट् एण्ड् स्थानं कुत्र अस्ति यत्र ईश्वरः नास्ति? वेर् वुड् बि द प्लेस् वेर् ही इस् नाट्? देर् इस् नो प्लेस् वेर् ही इस् नाट्. सो यत्र ईश्वरः नास्ति तादृशं स्थानं तु नास्ति एव, ईश्वरः सर्वत्र अस्ति. स्पष्टमस्ति वा? सर्वेषाम् अवगमनम् अभवत्? रैट्. रैट्. इदानीं पर्यन्तं कः न उक्तवान् आसीत्? सिद्धार्थ वैष्णव महोदय.
आम् महोदय.
या या, वुड् यू लैक् टु आन्सर् फ्यू क्वेशन्स्?
ओके.
या ओके. आर् यू अटेण्डिङ्ग् फोर् द फस्ट् टैम्?
यस् मेम्.
ओके. सो हेव् यू लिसन् टु द रेकार्डिङ्ग् प्रीवियस् वन्?
ओके मेडम्.
हेव् यू लिसन्ड् ओर् येट् टु लिसन्? ऐ मीन्.
Yes, ma'am. I listened all the recordings.
Okay, okay, fine. So, I'm asking you a few questions. Okay, just try to answer. Huh?
Yes, ma'am.
Bhavatah nama kim?
Mama nama Siddharth Vaishnava.
Bhavan kutra nivasati?
अहं बिलासपुर शहरे छत्तीसगढ़ प्रांते भारतदेशे निवसामि.
वंडरफुल.
निवसामि.
भवान् संस्कृत भाषा जानति वा?
आम, संस्कृत भाषा जानामि.
बहु सम्यक्. भवान् पाठशालायां पठितवान् वा?
आम, संस्कृतभाषाया आठवीं क्लास तक, एट्थ स्टैंडर्ड में आई स्टडी.
अष्टम
कक्षाया.
वंडरफुल. ओके. इदानीम् अहं वदामि. इफ् ऐ एम् सेयिङ्ग् एषः बालकः, एषः बालकः, एण्ड् आल्सो ऐ एम् सेयिङ्ग् सः बालकः. वाट् इस् द डिफ्रेन्स् बिट्वीन् दीस् टु?
संज्ञा डैरेक्षन् is it nearer and farer?
And farer, yes. Samipe va dure.
Dure.
Are bhavan tu sarvameva janati. Okay. Idanim atra tatra kutra sarvatra anyatra upayujya vakyani vadati va ekam ekam.
It's just this is a revision to practice spoken Sanskrit.
Oh, yes, yes. You will have enough practice. Don't worry.
Yes.
Dhanyavadah.
Fluency is must, ma'am.
Yes, yes, yes. You will develop that. No worries.
Okay, ma'am. Dhanyavadah.
Agatam. Right. Devaki bhagini atra agatavati. Devaki bhagini?
नमस्ते भगिनी.
भवती वदति वा अत्र तत्र कुत्र सर्वत्र अन्यत्र उपयुज्य वाक्यानि वदति वा?
अत्र उत्पीठिका अस्ति.
बहु सम्यक्. अनन्तरं
तत्र वृक्षः अस्ति.
सम्यक्.
देवः सर्वत्र अस्ति.
बहु सम्यक् देवः सर्वत्र अस्ति.
स्यूतः अन्यत्र अस्ति.
अन्यत्र अस्ति स्यूतः, अन्यत्र अस्ति कारयानम्, अन्यत्र अस्ति रेलयानम्, अन्यत्र अस्ति
लोकयानम्, अन्यत्र अस्ति
मन्दिरम्, अन्यत्र अस्ति. धन्यवादः धन्यवादः
धन्यवादः.
मायरा भगिनी आगतवती वा? आर् यू बेक् मायरा बेटा और स्टिल् गोयिङ्ग् एनिवेर्? मायरा
हेलो,
आर् यू बेक्?
हेलो
यस् स्वागतम्. वेर् आर् यू?
My internet is not stable.
What is not stable?
Internet.
Internet not stable. Okay. So, Bhavati, Vadati, Vakrupaya, Atra, Tatra, Sarvatra, Anyatra, Upayujya, Vakyani Vadati, Va?
Ha.
Ha, Vadati.
Atra, Siuta, Asti. तत्र पाठशाला अस्ति.
सम्यक्.
देवा सर्वत्र अस्ति.
बहु सम्यक्.
वाट् वाज़ दैट अवर्?
अन्यत्र अन्यत्र
स्यूता अन्यत्र अस्ति.
करेक्ट्. सम्यक् बहु सम्यक्. ओके नौ ऐ वाण्ट् यू सम् आफ् यू टु अटर् सम् सेण्टेन्सेस् वित् रिस्पेक्ट् टु अस्ति सन्ति बिकास् देट् पार्ट् आल्सो वि स्टडि. नौ हियर् इफ् ऐ एम् सेयिङ्ग् अत्र वृक्षः अस्ति, अत्र वृक्षः अस्ति, फलं नास्ति. अत्र वृक्षः अस्ति, अत्र फलं नास्ति. अत्र मन्दिरम् अस्ति, अत्र भक्तः नास्ति. अत्र विद्यालयः अस्ति, अत्र छात्रः नास्ति. सेम् टैप् इफ् ऐ एम् सेयिङ्ग् वृक्षः अस्ति, फलानि न सन्ति. ओके सी अस्ति, सन्ति, नास्ति, न सन्ति. वी हव् टु बि वेरि केर्फुल् प्लुरल् एण्ड् सिङ्ग्युलर्. मन्दिरम् अस्ति, अत्र मन्दिरम् अस्ति, अत्र भक्ता न सन्ति. अत्र मन्दिरम् अस्ति, अत्र भक्ताः न सन्ति. अत्र विद्यालयः अस्ति, अत्र छात्राः न सन्ति. अत्र स्थालिका अस्ति. वाट् इस् स्थालिका? वाट् इस् स्थालिका? अत्र स्थालिका अस्ति, अत्र भोजनं नास्ति. एम्प्टी प्लेट्. भोजनं नास्ति. ओके सो जस्ट् कम्बैन् दिस् अस्ति, नास्ति, सन्ति एण्ड् मेक् सेण्टेन्सेस्. ऐ थिङ्क् ऐ हियर् एको फ्रोम् समवेर्. ऐ डोण्ट् नो. एकवारं सर्वे एकोयिङ्ग् या या. एकवारं सर्वे म्यूट् कुर्वन्तु, एकवारं म्यूट् कुर्वन्तु सर्वे. प्लीज् गो आन् म्यूट् एव्रिबडि. Okay, and then I'll call the names and then you make the sentence. Right, रमणी भगिनी, रमणी भगिनी अन्म्यूट् करोतु कृपया. या सो वाट् यु हाव् टु यूस् नौ, अस्ति, सन्ति, नास्ति, न सन्ति एण्ड् फ्रेम् द सेण्टेन्स्.
हा अस्ति. अत्र विद्यालयम् अस्ति.
विद्यालयः अस्ति.
ओ विद्यालयः अस्ति.
विद्यालयः पाठशाला. जस्ट् ट्रै टु अण्डर्स्टाण्ड् द डिफ्रेन्स्. विद्यालयः पाठशाला, शाला पाठशाला श्रीलिङ्ग्.
अत्र विद्यालयः अस्ति. अत्र छात्राः न सन्ति.
सम्यक्. अनन्तरं क्लेयर् भगिनी वदति वा? क्लेयर् भगिनी
लेखनी अत्र अस्ति. अङ्कने अत्र नास्ति.
बहु सम्यक्, बहु सम्यक्. दीप्ति भगिनी वदति वा?
अत्र स्थालिका अस्ति. अत्र चषकाः न सन्ति.
चषकाः न सन्ति, बहु सम्यक्. देवकी भगिनी
गृहम् अस्ति. अत्र वृक्षाः न सन्ति.
वृक्षाः न सन्ति, बहु सम्यक्. अम्बिकापति महोदय वदति वा कृपया?
अत्र आम्रवृक्षः अस्ति किन्तु आम्रफलानि नास्ति.
इतोपि फेब्रुवरि मासः प्रचलति खलु, तत् आम्रफलानि नास्ति. ओके, सम्यक् सम्यक्. राजन् महोदय
नमस्ते भगिनि.
हा नमस्ते, वदतु कृपया.
अत्र सङ्गणकम् अस्ति. अत्र पुस्तकानि नास्ति.
पुस्तकानि न सन्ति. तत् प्लूरल् अस्ति खलु, पुस्तकानि न सन्ति, पुस्तकं नास्ति. ओके, पुस्तकम् अस्ति, पुस्तकं नास्ति. रैट्, सम्यक्.
धन्यवादः.
धन्यवादः. रमणी भगिनी वदतु.
अत्र आसन्दः अस्ति. अत्र जनाः न सन्ति. जनाः
पुनः एकवारं वदतु कृपया. किं नास्ति?
जनाः
किं वक्तुम् इच्छति भवती?
People are not there to sit on the...
Okay, okay. Janaha na santi. Okay, fine. Wonderful. Radha Bhagini.
Maybe...
Janaha na santi. Evam, na? Okay. Radha Bhagini.
Atra vanam asti. Atra griham nasti.
Griham tatra asti. अत्र वनमस्ति, गृहं तत्र अस्ति. गृहं कुत्र अस्ति? गृहं तत्र अस्ति. वण्डर्फुल्, गुड्. राधाबन्दी भगिनी शीघ्रं शीघ्रम्, अनन्तरं वी हाव् अ स्टोरि टैम्, सो क्विक्लि वी विल् फिनिश् दिस्. राधाबन्दी भगिनी वदति वा? राघव महोदय.
हलो, हा जी.
हा हा हा, वदतु वदतु कृपया.
अत्र सूतकः अस्ति. अत्र पुस्तक न सन्ति.
पुस्तकं
पुस्तकं
और् पुस्तकानि न सन्ति.
पुस्तकानि,
पुस्तकम् इस् सिङ्ग्युलर्, पुस्तकानि इस् प्लुरल्. सिङ्ग्युलर् अस्ति, प्लुरल् अस्ति चेत् सन्ति, न सन्ति. ओके, गुड् गुड्. राघव महोदय ओके सेल्वी महोदय सेल्वी भगिनी सेल्वी महोदये वदति वा
अत्र लता अस्ति पुष्पाणि न सन्ति
लता तु अस्ति परन्तु पुष्पाणि न सन्ति ओके द ब्लॉसमिंग पीरियड हैज नॉट येट कम पुष्पाणि न सन्ति वंडरफुल शैलेन्द्र महोदय वदति वा
अत्र सङ्गणकम् अस्ति अत्र पाठशाला अस्ति छात्राः न सन्ति
पाठशाला अस्ति तत्र पाठशाला तु अस्ति छात्राः न सन्ति धन्यवादः शिवमहोदय
I'm Bhagini. Are you hearing me?
Yeah, I was calling your name, Shiva.
Yes, I had to, I don't know why you won't hear me. I had to exit and come back in. Thank you very much.
Astu, astu, astu.
Atra, upanetram, asti. Atra, chalani, nasti.
पुनः एकवारं वदति वा कृपया
सारी ऐम नॉट श्योर
विल यू प्लीज रिपीट वन्स अगेन सर जस्ट वन्स
उपनेत्रम अस्ति
उपनेत्रम अस्ति
अत्र चालने नास्ति
नास्ति सम्यक श्रीवत्स महोदय धन्यवाद महोदय शिवमहोदय
तत्र भवनम् अस्ति तत् भवने जनाः न सन्ति
जनाः एव न सन्ति भवनं तु अस्ति परन्तु जनाः एव न सन्ति वेरी नैस् सिद्धार्थ महोदय
अत्र कूपः अस्ति जलमेव न सन्ति
जलमेव न सन्ति न अस्ति जलम् एव नास्ति इति ओके यस् एन्वायरमेण्टल् हेजार्ड् जलमेव नास्ति तु अस्ति एव सम्यक् श्यामला भगिनी
भगिनी अत्र पुष्पकम् अस्ति तत्र लता नास्ति
पुष्पम् अस्ति लता नास्ति ओके सम्यक् त्रिविक्रम महोदय चषकः अस्ति परन्तु जलमेव नास्ति अत्र चषकः जलं नास्ति ओके एकनिमिषम् हु इस् लेफ्ट् वीणा भगिनी इस् लेफ्ट् एण्ड् देन् विल् हाव् स्टोरि टैम् वीणा भगिनी वदति वा
अत्र हरिः अत्र वनम् अस्ति किन्तु हौ डु से एनिमल्स्
पशवः
किन्तु पशवाः न सन्ति
पशुः अस्ति पशुः नास्ति पशवः सन्ति पशवः न सन्ति वण्डर्फुल् वेरि नैस् सो एव्रिबडि हेज् कम् अप् वित् आल् डिफ्रेण्ट् ऐडियास् वेरि नैस् thank you so much and now we'll have story time you will have to listen the story carefully you like to hear the story no isn't it
yes
ah.
महोदय
नीता भगिनी मम अनुजी I didn't get a chance to say anything.
एवं वा अरे रे रे क्षम्यतां क्षम्यतां वदतु भगिनी वदतु अनन्तरं
फैन् इट्स् कम्प्लीट्लि फैन् ऐ जस्ट् वाण्ट् टु रीकेप् सो लेट् मी टेल् यू वाट् ऐ अण्डर्स्टुड् करेक्ट् मी इफ् ऐ एम् राङ्ग्
येस् वेरि नैस् स्पीक् स्पीक् औट् प्लीस्
ओके अत्र अत्र इस् हियर् तत्र इस् देर् अत्र अस्ति लैक् here is a the a clock is here something like that and
correct
ghatika na asti is not here
correct no you, asti
santi is used for plural instead of asti asti is for singular and santi correct. Is for plural so correct. When I say tatra kursi asti there are chairs there
asandah asti yes chair asti asandah asti atra tatra
okay
correct. Sarvatra everywhere sarvatra is everywhere yes
okay and anyatra is elsewhere
elsewhere
okay
and kutra means when we are asking question kutra where kutra asti atra asti kutra asti tatra asti kutra asti न जानामि अन्यत्र अस्ति ओके सो दीस् आर् द डिफ्रेण्ट् क्वेशन् इन् क्वेशन् फार्म् वेन् वी आर् आस्किङ्ग् ईश्वरः अत्र अस्ति वा ईश्वरः कुत्र अस्ति ईश्वरः अत्र अस्ति वायुः अत्र अस्ति वायुः सर्वत्र अस्ति लैक् देट् सो कुत्र अत्र तत्र अन्यत्र सर्वत्र कुत्र वेन् वी आर् आस्किङ्ग् द क्वेशन् You have understood correctly. Anybody who has not get the chance, who has not got the chance up till now and missed out? Anybody? Theek hai. Right. Okay, now let's have a story time. And then after hearing story also, I will call somebody to repeat the story. Either in Sanskrit language or in Angla Bhashayam. Let us see. Let us start the story. लिसन् केर्फुलि एकः वृद्धः वनं गच्छति एकः वृद्धः वनं गच्छति ओके एकस्मिन् ग्रामे एकः वृद्धः अस्ति सः वनं गच्छति एकः वृद्धः वनं गच्छति राइट सो इन अ विलेज देयर इज एन ओल्ड मैन एंड ही इज वॉकिंग टू द फॉरेस्ट राइट और यू कैन से ऑन द पाथ टू द फॉरेस्ट ही इज जस्ट वॉकिंग वनं गच्छति वने वृक्षाः सन्ति वने नदी अस्ति वने पर्वतः अस्ति वने के सन्ति वने वृक्षाः सन्ति वने नदी अस्ति वने पर्वतः अस्ति वृद्धः मार्गे वृक्षस्य अधः छायायाम् उपविशति पुनः एकवारं शृण्वन्तु सर्वे वृद्धः he's walking to the forest now he's feeling tired on the way he's feeling tired and he's sitting down under a tree वृद्धः मार्गे वृक्षस्य अधः अधः सिटिङ्ग् डौन् अण्डर् ट्री वृक्षस्य अधः छायायाम् उपविशति सिटिङ्ग् what do we mean by chayayam?
Head.
Yes?
Head.
Shadow.
Head.
Shadow. Sitting in a shadow. He's feeling tired. Vruddha asti, an old man. Now, he's sitting there, sitting down under a tree. And what do he find? Vrukshe phalani santi. Vrukshe pushpani santi. Vrukshe phalani santi. Vrukshe pushpani santi. Vrukshe vanaraha api santi. On the tree there were many fruits, many flowers, and also who were there? Who are there? Vanaraha.
Monkeys.
It took the monkeys. Vanaraha, markataha, kapayaha, kapihi, vanaraha, markataha. Kapihi asti, vanaraha asti, markataha asti. Markataha santi, vanaraha santi, kapayaha santi. So, there are flowers, fruits, and also many monkeys. Right? Vrukshe phalani santi, pushpani santi, vanaraha api santi. Now, what is there? He wants fruits. He is very tired. He wants something to eat. Surely he is capable of climbing the tree to get the fruits. But poor old man got scared of monkeys, getting scared of monkeys. So do not want to climb the tree because of the, due to fear of those monkeys. They might harm him too. He doesn't want to climb. Sahasamarthaha. Vruksham. Aruhya phalani svikartum samarthaha. He is capable of getting fruits. Capable of climbing the tree to get the fruits. Saha vruksham aruhya phalani svikartum samarthaha. Parantu vanara bhayat. Vanara bhayat. Arohanam na karoti. Vanara bhayat. Arohanam na karoti. What is arohanam?
Climbing.
Climbing. Arohanam na karoti. Okay. Got getting scared of those monkeys. And that's why arohanam na karoti. He wants the fruits. He is very wise, very intelligent person. So, thinks a plan. How to get the fruits? Thinking. Chintanam karoti. Right? He plans something. Saha phalani svikartum upayaha chintayati. Saha phalani svikartum. To get the fruits, upayaha chintayati, action plan, upayaha chintayati, thinking. Now, yatra vrukshaha, tatra vruddha, tatra phalani, tatra vanaraha vrukshah asti, vruddha asti, vanaraha santi, phalani santi, tatra shilakhandaha santi, shilakhandaha. So where that old man is sitting, there were many stones, shilakhandaha, shilakhandaha. Shilakhandaha santi. So where that old man is sitting down the tree, yatra vrukshah, tatra vruddhah, tatra vanarah, tatra shilakhandah. Now, the old man is now thinking, he is planning something. Yada, yada, aham, shilakhandan upayujya, yada, aham, shilakhandan upayujya, vanaram, vanaran, tadayami, if I throw the stones at the monkeys, yada, aham, shilakhandan upayujya, vanaran, tadayami, tada, vanaraha, api, just tell me, what is he thinking? If I throw the stones at the monkeys, then they, in return, they will also throw something.
Fruits.
What is that?
Fruits.
Fruits. Then they will throw back the fruits on me. I am throwing stones. They will throw fruits. Okay. Yada aham shilakhandan upayujya vanaran tadayami tada vanaraha api phalani upayujya mam tadayanti. Aham tadayami vanaraha tadayanti. Aham vadami te vadanti. Aham gachami te gachanti. See here, at this level, if you are finding it difficult, doesn't matter, just listen, no worries. Okay, I just want to bring the element aham te. Aham gachami te gachanti. Aham tadayami vanaraha tadayanti. Right? Okay, now, then what happens? So this is all decided by that old man. Vruddha vanaran shilakhandan upayujya tadayati vanaraha phalani upayujya vruddham tadayanti. Vruddha vanaran tadayati vanarah vruddham tadayanti. Vruddhah shilakhandan upayujya, shilakhandan svikrutya, taking stones in his hand, vanaran tadayati. Vanarah phalani svikrutya, phalani upayujya, using fruits, taking fruits, vruddham tadayanti. Then finally what happens? Tani phalani svikrutya, tani phalani svikrutya, vruddhah santushtah. So old man is throwing the stones at the monkey, and in return monkeys are throwing fruits of the tree at that old man. And then finally the old man collected the fruits and happy. Tani phalani svikrutya vruddhah santushtah. Avagatam? All of you understood the story?
Yes, madam.
Yes?
Avagatam.
Avagatam. Idanim. Saha vaka va sanskrutena vaktum icchati. Entire story. First chance, someone who wants to speak in Sanskrit. And the other chance, Angla Bhasha. Prayatna Kuruti Nifti Bhagini. Ambikapati Mohde also. Okay. So, Prathamam Dipti Bhagini Vadatu, Anantaram Ambikapati Mohde Vadatu. Start, Dipti.
Ekaha Vrittaha Grame Gachati.
अत्र ग्रामं गच्छति इति भवति
ग्रामं ग्रामं
गत्यार्थे द्वितीया इति अस्ति खलु ग्रामं गच्छति
ग्रामं गच्छति
अत्र वृद्धः भगिनी वृद्धः ग्रामतः वनं गच्छति खलु सो हि इस् पासिङ्ग् थ्रू द फारेस्ट् रैट् वाकिङ्ग् थ्रू द आन् द पात् टु द फारेस्ट् यु केन् से वृद्धः वनं गच्छति
वृद्धः वनं गच्छति सोरि
सोरि यस् यस् इट्स् ओके
तत्र एकः वृक्षः अस्ति
अस्मि
ओके वृक्षे वानराः सन्ति फलानि सन्ति पुष्पाणि सन्ति वृद्धः टायर्ड् वाट् इस् टायर्ड्
टायर्ड् श्रान्तः इति वृद्धः श्रान्तः
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 he wanted to sit down so chayayam what is it vrikshah chayayam upavishati
samyak
vrikshah chayayam upavishati
vruddhah vrukshasya chayayam upavishati
vruddhah vrukshasya chayayam upavishati vruddhah what was hungry भूख लगा वट् वास् देट् वृद्धः
बुभुक्षितः इति शब्दः ऐ डिडन्ट् यूस् देट् वर्ड् यु केन् से वृद्धः फलानि इच्छति मेक् इट् एस् सिम्पल् एस् अवश्य तत्र हङ्ग्री इत्युक्ते बुभुक्षितः इति अस्ति
फलानि इच्छति
इच्छति फलानि इच्छति
फलानि इच्छति परन्तु वृद्धः वानराः भयात्
वानरभयात्
वानरभयात् अस्ति
आरोहणं न करोति आरोहणं क्लैम्बिङ्ग् आरुह्य कविता शाखा वन्दे वाल्मीकि कोकिलम् इति आरुह्य आरोहणं न करोति
आरोहणं न करोति तत्र वृद्धः चिन्तयति
चिन्तयति प्लान् आफ् एक्शन् यस्
वृद्धः शिलाखण्डाः शिलाखण्डाः वाट् वास् देट् फुङ्क्
शिलाखण्डान् स्वीकृत्य उपयुज्य वानरान् ताडयति
वानरान्
ताडयति
ताडयति
ताडयति ताडयति थ्रोयिङ्ग्
क्षिप्तवान्
इण्टन् वानराः
फलं ताडयन्ति वृद्धं ताडयति
फलानि स्वीकृत्य वृद्धं ताडयति ओके सो वाट् इस् द कन्क्लूजन् निष्कर्षरूपेण वदतु निष्कर्षः कः तत्र
वृद्धः फलानि स्वीकरोति तदा गच्छति सः
हि इस् वेरि हेपी वृद्धः सन्तुष्टः वृद्धः समाधानम् अनुभवति सन्तुष्टः भवति सन्तुष्टः अस्ति okay see the idea is we have to reproduce the story in whichever way we want by using simple words okay fine very nice good attempt very nice ambika pathi mohoday vadati va
ham magani
krupaya ha
ekada
वृद्धः ग्रामात् वनं गच्छति मार्गे सः श्रान्तः अभवत् अतः बहु वृक्षः सन्ति वृक्षः अतः सेट् डौन्
उपविशति
वृद्धः अतः उपविशति
उपविशति
वृद्धः बहु बुभुक्षः अभवत्
बुभुक्षितः हियर् ऐ जस्ट् वाण्ट् टु स्टे समथिङ्ग् ऐ नरेटेड् द स्टोरी इन् सच् अ वे देट् एव्रि टैम् वी आर् यूसिङ्ग् प्रेसेण्ट् टेन्स् सो अभवत् इट् बिकम्स् पास्ट् टेन्स् खलु यु आर् सेयिङ्ग् इट् रैट्लि बट् एस् फार् एस् पासिबल् एट् अवर् लेवल् वी विल् स्टिक् टु प्रेसेण्ट् टेन्स् गच्छति वदति भवति सम्यक् बहु
सम्यक् अतः वृक्षे फलानि सन्ति वानरात् अपि सन्ति
वानराः अपि सन्ति सम्यक्
वृद्धाः भयात् भयम् अस्ति अतः चिन्तयति अहं किमर्थं फलानि स्वीकरोमि इति
अहं कथं फलानि स्वीकरोमि कथं हौ ओके
अतः शिलाकण्ठान् पश्यति शिलाकण्ठान् स्वीकृत्य वानरान् ताडयति वानरान् कुपितः भवति
वानराः कुपिताः वानराः कुपिताः वानरः कुपितः ओके वानराः कुपिताः
वानराः फलानि स्वीकृत्य वृद्धः ताडयति ताडयन्ति
वृद्धं ताडयन्ति सम्यक् बहु सम्यक्
ताडयन्ति फलानि स्वीकृत्य वृद्धः सन्तोषेण खादति
अरे वा वण्डर्फुल् सन्तोषेण खादति हि इस् ईटिङ्ग् वेरि हेपिलि वेरि नैस् वण्डर्फुल् बहु सम्यक् बहु सम्यक्
धन्यवादः
सो आल् अदर्स् हाव् यु दीपक राजाध्यक्ष महोदय नमो नमः महोदय
नमो नमः सारी ऐ वाज औट् ऐ केम लेट
ओ एवं वा
रिकॉर्डिंग
या लिसन टू द रिकॉर्डिंग प्लीज
या
ओके सो इदानीं वयं समापयामः एनीथिंग टू आस्क एनी डाउट यू हैव Shall we have this such type of storytelling, story time for every session?
Yes.
That will be great.
At the end. Okay. And we will try to reproduce it in Sanskrit Bhasha.
But I have a question.
Yeah.
You mentioned the forest Parvataha Asti. Parvataha, is it plural?
Parvataha Asti. पर्वताः सन्ति
ओके पर्वतः अस्ति
अस्ति पर्वताः सन्ति
थैंक यू मैडम
सो पर्वतः इज मैस्कुलिन राइट
मैस्कुलिन
सो इट्स नॉट पर्वत
नो 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 तत्र अत्र भाषायां नदी इति स्त्रीलिङ्गि पर्वतः इति पुल्लिङ्गि वी हाव् अ कल्चर् देट् दिस् इनानिमेट् थिङ्ग्स् दे आर् कन्सिडर्ड् एस् सम् वित् सम् डिवीन् डिवैन् पवर् सम् नदी आल्सो तत्र इट्स् नाट् अ जस्ट् फ्लो आफ् वाटर् एण्ड् वाटर् इस् फ्लोयिङ्ग् वि वर्षिप् नदी रैट् So, yes. we worship river, we worship parvat, that is the thing. So, masculine and feminine gender is attributed.
Right.
Okay. Any doubt? Anybody has got any doubt? Vayam samapayamaha? Okay, Shanti Mantram Badatiba?
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे पश्यन्तु भवेत् ॐ शान्ति